पञ्चायुधस्तोत्रम् स्फुरत्सहस्रारशिखातितीव्रम् सुदर्शनम् भास्करकोटितुल्यम् सुरद्विषाम् प्राणविनाशि विष्णोः चक्रम् सदाहम् शरणम् प्रपद्ये। विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्धानवदर्पहन्ता तं पाञ्चजन्यं शशिकोटिशुभ्रम् शङ्खं सदाहं शरणं प्रपद्ये। हिरण्मयी मेरुसमानसारा कौमोदकीं दैत्यकुलैकहन्त्री वैकुण्ठवामाग्रकराग्रमृष्टा गदां सदाहं शरणं प्रपद्ये। यज्ञानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः भवन्ति दैत्याशनिबाणवर्षैः सारङ्गं सदाहं शरणं प्रपद्ये। रक्षोऽसुराणां कठिनोग्रकण्ठ छेदक्षरक्षोणितदिग्धसारम् तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाहं शरणं प्रपद्ये। इमं हरेः पञ्चमहायुधानां स्तवं पठेत्यो नुदिनं प्रभाते समस्तदुःखानि भयानि सत्यः पापानि नश्यन्ति सुखानि सन्ति। वने रणे शत्रुजलाग्निमध्ये यत्रुच्छयापत्सु महाभयेषु पठेत्विदं स्तोत्रमनाकुलात्मा सुखी भवेत्तत्कृत सर्वरक्षः। यच्चक्रशङ्खं गदखड्गशारङ्गिणं पीताम्बरं कौस्तुभवत्सलाञ्छितं श्रियासमेतोज्ज्वलशोभिताङ्गं विष्णुं सदाहं शरणं प्रपद्ये। जले रक्षतु वाराहः स्थले रक्षतु वामनः अटव्यां नारसिंहश्च सर्वतः पातु केशवः। इति श्रीपरमहंसपरिव्राजकचार्य श्रीमच्छङ्कराचार्यविरचितं पञ्चायुधस्तोत्रं सम्पूर्णम्।